ما اعرفش بقى.
تمام.
وبس ارجع وشير. بس ارجع. بس ارجع.
प्रभुसिद्धान्तकौमुदी अनुसृत्यैव उपसर्गविषये वर्तते. तद् अन्य ग्रन्थान्तरमपि सङ्गृह्य उपसर्गविषये पुनः पाठं करोमि.
उपसर्ग कथं सूत्रं भवति प्रादयः.
प्रादयः प्रा अक्षरेण येषाम् अक्षराणां प्रारम्भः भवति स प्रादयः. प्र एव आदिः आदौ येषां ते प्रादयः. प्रादयः अधुना अस्य नामकरणं जातं प्रादयः इत्येव. प्रादयः किम् इत्युक्ते
प्रादयः पाणिनीयसूत्रं. द्वितीयं सूत्रं भवति चादयो
असत्त्वे. सत्त्वं नाम द्रव्यं वस्तु. यत् पदं त्वा अक्षरं किमपि वस्तुं न सूचयति. अर्थः वर्तते किन्तु वस्तुवाचकः न भवति. तत् शब्दस्वरूप च अपि इत्यादयः ये वर्तन्ते तेषां निपातः इति नामधेयं भवति. निपातः च आदयः असत्त्वे. अद्रव्यवाचकाः च आदयः निपातसंज्ञकाः भवन्ति. च आदयः अद्रव्यवाचकाः. द्रव्यवाचकः न. यदि कुत्रापि यत् संस्कृतभाषायाम् एकैकस्य अक्षरस्यापि अर्थं वस्तुवाचित्वमपि वर्तते. यथा लम् इत्युक्ते पृथिवी इत्यपि तस्य अर्थः भवितुं शक्यते लकारस्य एकस्य अक्षरस्य. किन्तु वाक्यादिप्रयोगेषु यत्र असत्त्वे द्रव्यार्थकेन प्रयोक्ष्यामः तदा च अपि इत्यादयः ये वर्तन्ते तेषां निपातः इति संज्ञा. संज्ञा इत्युक्ते नामधेयं. संज्ञा प्रादयः. अधुना तत्र प्रादयः प्र आदि द्वाविंशति उपसर्गाः अक्षराणि अपि निपाताः एव भवन्ति. प्रादयः अपि निपाताः एव. प्रादयः निपातः. तत्र चादयः सत्त्वे तदनन्तरं प्रादयः. प्रादयः अपि निपातः. तृतीयं सूत्रं उपसर्गाः क्रिया योगे. उपसर्गाः क्रियायोगे. तत्र प्रथमः प्रादयः इति पाणिनि सूत्रेण प्रा इत्यादयः द्वाविंशति अक्षरम् अथवा अक्षरसमुदायः इति ते चादयः ते इति सूत्रेण निपातिताः भवन्ति तेपि निपाताः इति
तदनन्तरं प्रादयः उपसर्गाः क्रियायोगे क्रिया
मैंने धातुसम्बन्धेन प्र आदयः उपसर्गसंज्ञां लभन्ते ये निपाताः वर्तन्ते
ते प्रादयः क्रियायोगे
क्रिया क्रियावाचिशब्दसम्बन्धेन क्रियावाचकाः धातवः धातव रूट्स् धातवः क्रियावाचकाः भवन्ति अतः क्रियायोगे क्रिया इत्युक्ते धातु अत्र क्रियाशब्दस्य धातु रूट् वर्बल् रूट् वर्बल् रूट्
वर्बल् रूट् सम्बन्धेन योगे
सम्बन्धेन
प्रादयः
उपसर्गाः भवन्ति उपसर्गाख्यां लभन्ते उपसर्गा इति नामधेयं प्राप्नुवन्ति इति अर्थबोधः जायते वा
उपसर्गाः अधुना प्रादयः
प्रादि द्वाविंशति अक्षराणाम् अक्षरसमूहानां
समूहस्य उपसर्गा इति नामधेयम्
अनेन सूत्रेण भवति
उपसर्गाः क्रियायोगे सूत्रेण
येषां नामधेयं नामकरणम्
अर्थात् क्रियासम्बन्धात्
अन्यत्र प्रादीनां वक्तुरिच्छातु तात्पर्यमिति वक्तुरिच्छय अन्यत् किमपि भवेत् प्रा इत्यादि पूर्वमेव उक्तं तस्यापि वस्तुवाचित्वं सर्वेषामपि अक्षराणां वस्तुवाचित्वमपि वर्तते किन्तु
क्रियासम्बन्धेन
यदा
एते प्रादयः एतानि प्रादयः नाम अक्षराणि आगच्छन्ति
तदा उपसर्गसंज्ञां लभन्ते स्पष्टं वा
ते के तत्र प्र
तत्र
उपसर्गाः द्वाविंशति उपसर्गाः
द्वाविंशति इप्पत्तेरडु बायिस बायिस ट्वेण्टि टु उपसर्गाः
ते अत्र आङ् इत्यत्र आकारमात्रं नकारः एव परिग्रहार्थम् आकारस्य परिग्रहार्थमात्रम् आगतम् आ इत्येव अवशिष्यते
द्वाविंशति उपसर्गाः
द्वाविंशति तत्र वर्तते वा अत्र
पश्यन्तु
उपरि दश सन्ति पंथमायां पंच दश एव
दश दश
दश दश दश एकाश
तर्हि बलि
उपमा यदि एवमेव वदामः अहं बहुशो उपसर्गादिसन्धिविषये मया पाठितं तथापि मया वक्तुं न शक्यते रवि परासम् अवनिर्दुस्दुर्वियाङ् अधि अभि अधि प्रति इत्यादि क्रमेण अतः तदर्थमेव संस्कृतभाषायां यत् स्मृति स्मृतौ रक्षितव्यं तदर्थं श्लोकः क्रियते यदि एतदेव श्लोकरूपेण भवति तर्हि वयं स्मृतौ रक्षामः तदर्थं
रवि पराप समन्वव समन्वसौ तुरति शोदति परि
रविपरापसमन्ववनिर्निशौ दुरति दुष्प्रतिसूदधि पर्यपि तदनुचाङ्गभिनी उपविंशतिः द्विसहितीत्युपसर्गसमाह्वयः स्मर्यते वा
पुनः एकवारं उच्चैः वदतु
प्रविपरापसमन्ववनिर्निशौ दुरति दुष्प्रतिसूदधि पर्यपि तदनुचाङ्गभिनी उपविंशतिः द्विसहितेत्युपसर्गसमाह्वयः प्रविपरापसमन्ववनिर्निशौ दुरति दुष्प्रतिसूदधि पर्यपि तदनुचाङ्गभिनी उपविंशतिः द्विसहितेत्युपसर्गसमाह्वयः आधुनिकशैल्या यदि वदामः तर्हि प्रविपरापसमन्ववनिर्निशौ दुरति दुष्प्रतिसूदधि पर्यपि तदनुचाङ्गभिनी उपविंशति द्विसहितेत्युपसर्गसमाह्वयः एवं यदि गद्यात्मना स्मीयते स्मर्तुं न शक्यते यदि पद्यात्मकेन वयं मुखपाठं कुर्मः तर्हि स्मरणे रक्षितुं शक्यते स्मृतौ
प्रविपरापसमन्ववनिर्निशौ दुरति दुष्प्रतिसूदधि प्रियपि तदनुचाभिनी उपविंशतिः द्विसहितेत्युपसर्गसमाह्वयः
अत्र भवन्तः सर्वेपि गुरवः अहं तत्कालावसरे तात्कालिकः गुरुः सञ्जातः अधुना कर्णाटकभाषायाम् अत्र संस्कृत भाषा समासपद्धत्या इति किमपि गुरोः गुरुः गुग्गुरुः गुरोः गुरुः गुग्गुरुः कर्णाटकभाषायां गुग्गु शब्दस्य अर्थः मूर्खः भवतां गुरूणां सविधे अहं मूर्खः न भवेयमिति मत्वा किञ्चित् गम्भीरस्थितौ अस्मि यदि बालकाः एव वर्तेरन् कक्षायां तदा मम स्वरूपः एव पाठनशैलीरपि एतादृशं गम्भीरतां परित्यक्त्वा आचार्या सूर्ध्वत्वा अन्वाचष्टे इत्युक्ते दिशा बालकैः बालिकाभिः सह सूर्त्वं प्राप्य पाठनं मम शैली आसीत् आसीत्
सूर्त्वं
प्राप्य सूर्त्वं प्राप्य अत्र
प्र वि परा अप अत्र परा अप इति पदच्छेदः कर्तव्यः भवति समनु सम् अनु अव इति समन्वव इति निर्निशौ या अन्य दुरति दुर् अति दुष्प्रति दुष्प्रति सूदधि सु उत् अधि सु उत् अधि परि अपि ज्ञानं सन्ति तदनु इति केवलं पादपूरणे तदनन्तरम् इति अर्थः च आं चाङ् इत्यत्र च प्लस् आम् अभि चाङ् अभि मया तत्र चाङ् अभि इति लेखनावसरे मया अर्धाक्षरः कृतः आसीत् तत्र चाङ् अभि चाङ् अभि नि उपविंशतिः उप अपि उपसर्ग एव विंशतिः द्विसहिता द्विसहिता विंशतिः उपसर्गसमाह्वयः उपसर्गाणां नामधेयं समाह्वय इत्युक्ते नामधेयं तदनु तदनन्तरं च तदनन्तरं च आम् अभि नि उप इत्येतानि द्विसहितानि उपविंश विंशतिः द्विसहितानि विंशतिः उपसर्गसमाह्वय उपसर्गाणां नामधेयम् आह्वयम् इत्युक्ते उपसर्ग लिखितं वा अधुना उपसर्गाणाम् उपयोगः किम् उपसर्गाणाम् उपयोगः संस्कृतभाषायां बहुशः वर्तते उपसर्गजीवातो इत्यपि वक्तुं शक्यते लिखितं वा सर्वैरपि तत्र उपसर्गेण किं भवति उपसर्गेण धात्वर्थः बलादयः वदामि अत्र वर्तते
अत्रापि लिखितमस्ति लेखनस्य आवश्यकता नास्ति
प्रायः तत्र सर्वेषां हस्ते वर्तते वा सर्वेषां हस्ते यदि वर्तते तत्रैव विषयः धात्वर्थं बाधते न करपत्रे एतश्लोकं वर्तते उपसर्गस्य गतिः त्रिधा उपसर्गाणां प्रयोजनं किं प्रादयः उपसर्गाः धातो पूर्वं धातुम् आश्रित्य धातोः अर्थान्तरं कुर्वन्ति तदर्थमेव तत्र अपि एकः श्लोकः वर्तते धात्वर्थं बाधते कश्चित् कश्चित् तमनुवर्तते तमेव विशिनश्चन्यः उपसर्गगतिः त्रिधा एक्ट् त्री टेन् उपसर्गः त्रिविधं तस्य कार्यं वर्तते प्रथमं धात्वर्थं बाधते धातोः अर्थः यथा गच्छति गच्छति इति धातु क्रियात्वमापन्ना आपन्ना धातुः गच्छति इति गच्छति गो चलो होगु अस्य अर्थः वर्तते गच्छति गमनं करोति इति अस्यैव यदि
अधि इति उपसर्गम्
अधि इति उपसर्गेण सह गच्छति अस्य उपयोगं कुर्मः तदा अधिगच्छति इति भवति अधिगच्छति प्राप्नोति गेट् पडयुत्ताने ही आर् शी गेट् समथिङ्ग् गेटिङ्ग् तत्र पूर्वं गच्छति पदस्य अर्थः गमनं गोयिङ्ग् यदि यदा अधि उपसर्गेण मिलितः तदा तस्य अर्थः एव अन्यः धातोः अर्थः गच्छति इति आसीत् तं बाधित्वा बाधित्वा इत्युक्ते विरोधं कृत्वा तत् परित्यज्य धातोः अर्थं परित्यज्य अन्यः अर्थः समागतः धात्वर्थं बाधते अत्र बाधनम् अन्यत् स्वरूपमपि वर्तते गच्छति आगच्छति आगच्छति बालपाठावसरे अस्माभिः उच्यते धातो विरुद्धार्थः अन्यार्थः विशेषार्थः इत्यपि उपसर्गगतिः त्रिधा विरोधार्थः धातोः यः अर्थः आसीत् तस्य विरोधः विरोधः एव क्रियते अन्य विशिष्टार्थः तस्यैव विशिनष्टि तत्र वर्तते विशिनष्ट्यन्यः इति अधुना आगच्छति विरोधार्थः अथवा विरुद्धार्थः विरुद्धार्थः गच्छति गोय् आगच्छति कमिङ्ग् आगच्छति हा गच्छामि इति सः प्रवृत्तः धातुः धातुः उपसर्गः तत्र ब्रेक् तस्य तत्र नासिका सूत्रं गृहीत्वा सः न गन्तव्यम् आगच्छ पुनरावर्तनं करोतु आगच्छति तस्य विरुद्धार्थः सम्भवति तद् क्रिया तु वर्तते किन्तु क्रियार्थः क्रिया गमनक्रिया गमनेपि आगमनेपि क्रिया एव वर्तते किन्तु गमनं नाम यस्मात् स्थाने वा सः स्थितः आसीत् तस्मात् सः निर्गच्छति आगच्छति इत्युक्ते स्वस्थानं पुनः प्राप्नोति तदर्थे सः विरुध्यते विरुद्धार्थः इति भवति गमनक्रियार्थेन फलितार्थे तमेव विशिनष्ट्यन्यः विशिनष्टि विशेषार्थः तस्यैव विशेषार्थं यच्छति यथा प्रगच्छति 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 इत्युक्ते विशेष विशिष्टार्थः विशिष्टार्थः गमनं वर्तते किन्तु गमनं सम्यक् सुन्दरं प्रकृष्टेन गच्छति उत्तमतया गच्छति गच्छति उत्तमतया गच्छति प्रा उपसर्गेण गमनक्रियायां कञ्च विशेषः विशेषः विशेषगमनं विशेषगमनं सौन्दर्येण भरतनाट्यादि स्थितौ चेत् सौन्दर्यार्थं भवेत् अथवा वीथ्यां यदि भवेत् तदापि गमनं बहुशः अन्य सर्वेषां गमनम् एकसदस्यं न वर्तते सा प्रकृष्टेन गच्छति इति धातोः गमनार्थमेव वर्तते तत्र किन्तु सः उत्कृष्टः इति प्रकृष्टम् उत्कृष्टगमनम् इति तस्यैव विशेषार्थः प्र उपसर्गेण दीयते
तीव्रतया गच्छति एतदपि अर्थं तीव्रतया
तीव्र इति न झटिति न प्रगच्छति प्रकृष्टं प्रकृष्टेन गच्छति तत्र तीव्रशब्दस्य शीघ्रं गच्छति वेगेन गच्छति इति अर्थः न
प्रतिगच्छति आङ्ग्लभाषायाम् अनुवादनं करोति चेत् गोयिङ्ग् वेल्
प्रगच्छति गोयिङ्ग् वेल् वेल् गोयिङ्ग् वेल् गोयिङ्ग् अन्यार्थस्य अधिगच्छति अन्यार्थस्य इदमेव उदाहरणम् अन्यार्थः गच्छति इत्यस्य अपेक्षया अन्यदेव अर्थम् उपसर्गविषये एवम् अस्म लौकिकस्थितौ वयं वदामः श्वा सारमेयः श्वा पुच्छं कम्पयति किन्तु अत्र एवं न पुच्छः एव शुनं सारमेयं कम्पयति ನಾಯಿ ಬಾಲ ಅಲ್ಲಾಡಿಸೋದಲ್ಲ ಬಾಲವೇ ನಾಯಿಯನ್ನು
ಅಲ್ಲಾಡಿಸುತ್ತದೆ
ಉಪಸರ್ಗ ಸರ್ವತ್ರ ಪುಚ್ಛಸ್ಥಾನೆ ಸ್ಥಿತ ಭವಂತಿ ಧಾತೋ ಪುಚ್ಛಸ್ಥಾನೆ ಸ್ಥಿತ ಉಪಸರ್ಗ ಧಾತೋ ಅರ್ಥಮೇವ ನಿಗೀರ್ಯ ಸ್ವಾರ್ಥಂ ತತ್ರ ಪ್ರತಿಪಾದಯಂತಿ ಯಚ್ಚಂತಿ ಅತಃ ಸಾರಮೇಯ ಪುಚ್ಛಂ ನತೆ ಆಶ್ಚರ್ಯ किन्तु पुच्छाय पुच्छशब्दः पुन्नपुंसकद्वयोरपि वर्तते पुच्छमिति वक्तुं शक्यते पुच्छः इति वक्तुं शक्यते पुच्छं पुच्छः पुन्नपुंसक
उपसर्गः इत्युक्ते उपसर्गः इत्युक्ते पुच्छं
उपसर्गः
इत्युक्ते
पुच्छं गच्छति क्रियापदं यद् वर्तते श्वा श्वा सारमेयः सारमेयस्थाने धातुः तिष्ठति उपसर्गः पुच्छस्थाने तिष्ठति सर्वत्र वर्तते सारमेयः स्वपुच्छं कम्पयति किन्तु अत्र पुच्छः एव सारमेयं कम्पयति तस्य अर्थमेव अनेकशः अत्र अनेकवारं क्रियापदं हठेन वर्तते न तव आज्ञां न मानयामि इति तत् तस्मिन् सन्दर्भे उपसर्गाः द्वाविंशतिसङ्ख्याकाः किल ते बलात्कारेण द्वौ द्वौ त्रीणि उपसर्गाणि उपसर्गाः मिलित्वा तस्य स्वहस्ते कुर्वन्ति यथा अभ्युपगच्छति अभ्युप गच्छति अभ्युपगच्छति स्वीकरोति स्वीकरोति अभ्युपगच्छति इति अर्थः स्वीकरोति अभि उप अत्र उपसर्गद्वयं वर्तते अभि उप इति उपसर्गद्वयेन गच्छति इत्यस्य अभ्युपगच्छति स्वीकरोति सा आत्मना अपराधं स्वीकरोति चोरेण स्वापराधम् अभ्युपगम्यते अथवा चोरः अभ्युपगच्छति स्वापराधं ಚೌರ್ಯಂ ಅಭ್ಯುಪಗತಿ ಚೌರ ಸ್ವಾಪರಾಧ ಸ್ವಚೌರ್ಯಂ ಅಭ್ಯುಪಗತಿ ನ್ಯಾಯಸ್ಥಾನೆ ಅಭ್ಯುಪಗತಿ ಅಪರಾಧ ಮೇಲೆ ಸ್ವೀಕರೋತಿ ಇತಿ ಕೇವಲಂ ಏಕಸ್ಯ ಕ್ರಿಯಾಪದಸ್ಯ ಏಕಮೇವ ಉಪಸರ್ಗ ಇತಿ ನ ಏಕ ಏವ ಇತಿ ನ
ಪ್ರತ್ಯಾಗಚ್ಛತಿ
ಪ್ರತ್ಯಾಗಚ್ಛತಿ ಅತ್ರಾಪಿ उपसर्गद्वयं वर्तते अन्यदपि श्लोकं तत्र श्लोकः तत्र वर्तते इति मन्ये उपसर्गेण धात्वर्थः बलादन्यत्र नीयते प्रहाराहारसंहार ವಿಹಾರ ಪರಿಹಾರ ಏತು ಚೋದ್ಯ ಹೃಂಜ ಹರಣೆ ಇತಿ ಕ್ರಿಯಾಪದ ಹೃಂಜ ಹರಣೆ ಹರತಿ ಇತಿ ಮೂಲ ಕ್ರಿಯಾಪದ ಹರತಿ ತತ್ರ ಪ್ರ ಇತಿ ಉಪಸರ್ಗ ಸ್ಥಾಪನೆನ ಪ್ರಹರತಿ ಬೆಡಿ ಮಾರಯತಿ ಮಾರಯತಿ ಇತಿ ಅರ್ಥ ಭವತಿ ಪ್ರಹರತಿ ಪ್ರಹಾರ ತಸ್ಯ ಪ್ರಹಾರ ಇತಿ ತ್ರಿದಂತರೂಪೇಪಿ ಪ್ರಹಾರ ಇತಿ ಭವತಿ ಆಹಾರ ಹರತಿ ಇತ್ಯಸ್ಯೇವ ಆಹರತಿ ತತ್ರ ಕ್ರಿಯಾಪದ ರೂಪೇ ಆಹರತಿ ಇತ್ಯುಕ್ತೆ ಆನಯತಿ ಇತ್ಯರ್ಥ ಕಿಂತು ಆಹಾರ ಇತ್ಯುಕ್ತೆ ಅನ್ನಂ ಫುಡ್ ತತ್ರ ನಾಮಪದ ಸಂಸ್ಥಾನೆ ತಸ್ಯ ಅರ್ಥ ಅನ್ನಂ ಇತಿ ಭವತಿ ಆಹಾರ ಫುಡ್ ಇತಿ ಭವತಿ ಕ್ರಿಯಾಪದ ಸ್ಥಾನೆ ಆಹರತಿ ಆನಯತಿ ಇತಿ ಭವತಿ
ಆಹರತಿತಃ ಆಹಾರ ಶಬ್ದಃ ನ ಆಗತಃ ಆಹಾರ ಶಬ್ದಃ ಕುತಃ
ಉಪಸರ್ಗ ಕ್ರಿಯಾಪದ ಸ್ಥಾನೆ ನಾಮಪದ ಸ್ಥಾನೆ ಅರ್ಥ ವ್ಯತ್ಯಾಸಂ ತದಾತಿ ಕ್ರಿಯತೆ ಆಹಾರ ಆಯಿತಿ ಉಪಸರ್ಗ ಹೃಂಜರಣೆ ಇತ್ಯಸ್ಮಾತ್ ಧಾತೋರೇವ ಸಮುತ್ಪನ್ನ ಆಹಾರ ಸ್ವೀಕ್ರಿಯತೆ ಇತ್ಯರ್ಥೆ ಆಹರತಿ ಇತ್ಯುಕ್ತೆ ಸ್ವೀಕರೋತಿ ಆನಯತಿ ನಮ್ಮ ಸ್ವೀಕರೋತಿ ಇತ್ಯಪಿ ಅರ್ಥ ಆಗುತ್ತೆ ತತ್ರ ಸ್ವೀಕರೋತಿ ಇತಿ ಅರ್ಥಂ ನಿವೇಶ್ಯ ಸಸ್ಯ ದೇಹ ಪುಷ್ಟ್ಯರ್ಥಂ ಸ್ವ ಸ್ವೀಕರೋತಿ ಇತ್ಯರ್ಥ ಅನ್ನಂ ಸ್ವೀಕರೋತಿ ಇತ್ಯುಕ್ತೆ ಆಹಾರ
ಕುತಶ್ಚೇತ್ ಅನ್ನಂ ಹರತಿ
ಮುಖ ಸಮೀಪೆ ಆನಯತಿ ಸೋದರಂ ಪೂರಯತಿ ಪ್ರಹಾರಾಹಾರ ಸಂಹಾರ ಸಂಹರತಿ ತತ್ರ ಅರ್ಥತ್ರೈವಿಧ್ಯಂ ವರ್ತತೆ ಸಂಹರತಿ ಇತ್ಯಸ್ಯ ಏವ ಸಂಹಾರ ಸಂಹಾರ ಕೀಚಕ ಸಂಹಾರ ಸುಷ್ಟು ಕಿಂತು ದ್ರೌಪದಿ ಕೇಶ ಕೇಶ ಸಂಹಾರ ಸಂವರಣಂ ತತ್ರ ಸಂವರಣಂ ಕೇಶರಚನ ವೇಣೀಸಂಹಾರ ಪ್ರಸಿದ್ಧ ನಾಟಕಂ ವರ್ತತೆ ಖಲು ವೇಣೀಸಂಹಾರಂ ಇತಿ ಪ್ರಸಿದ್ಧ ನಾಟಕವೂ ವರ್ತತೆ ತತ್ರ ವೇಣೀಸಂಹಾರಂ ನಾಮ ದ್ರೌಪದ್ಯ ವೇಣೀ ಸಂವರಣಂ ನ ಭವತಿ ತತ್ರ ತತ್ ಸಂಗೋಪನಂ ಭವತಿ ತತ್ರ ಅನ್ಯದಪಿ ಅರ್ಥ ಸಂಹಾರ ಗ್ಯಾದರಿಂಗ್ ಸಂಹರತಿ ಏಕತ್ರ ಪೂರ್ಣಂ ರಾಶೀಕರಣ ಸಂಹಾರ ಶಬ್ದಸ್ಯ ರಾಶೀಕರಣಂ ಇತ್ಯಪಿ ಅರ್ಥ ವರ್ತದೆ ರಾಶೀಕರಣ ತತ್ರತ್ರ ಸ್ಥಿತಾನಾಂ ಸರ್ವೇಷಾಂ ಏಕತ್ರ ಏಕತ್ರೀಕರಣಂ ಯದ್ವರ್ತೆ ತಸ್ಯಾಪಿ ಸಂಹಾರ ಸಂಹೃತ್ಯ ಅಥವಾ ಸಮಗ್ರೀಕರಣಸ್ಯ ಅರ್ಥಾಪಿ ಅಥವಾ ಸಂಹೃತ್ಯ ವದಾಮಿ ಯದುಕ್ತಂ ಭಾಷಣೆ ಆದಿತ ಅಂತ್ಯಪರ್ಯಂತ ತತ್ ಸಂಗೃಹ್ಯ ಉಚ್ಯತೆ ಇತ್ಯವಸರೇಪಿ ಸಂಹಾರ ಶಬ್ದಸ್ಯ ಉಪಯೋಗ ವರ್ತದೆ ಅತ ತತ್ರ ಶಬ್ದರೂಪಂ ಪದರೂಪಂ ಏಕಮೇವ ಸಂಹರತಿ ಸಂಹಾರ ಇತ್ಯೇವ ಕಿಂತು ಅರ್ಥಂ ತತ್ ಪ್ರಯೋಗಾವಸರಂ ಯಥಾ ಸೈಂಧವಮಾನಯ ಇತಿ ಭೋಜನಾವಸರೆ ಯದಿ ಸೈಂಧವಮಾನಯ ಇತ್ಯುಚ್ಯತೆ ತದಾ ಲವಣಂ ಆನಯಿತವ್ಯ ಯಥಾ ಉತ್ಕವಚಂ ಧೃತ್ವ ಗೃಹಸ್ಯ ಬಯಿ ಸ್ಥಿತ್ವ ಸೈಂಧವಮಾನಯ ಇತ್ಯುಕ್ತೆ ತೇನ ಆನೀಯತೆ ಅಶ್ವಃ ತತ್ರ ಭೋಜನೆ ಉಪವಿಷ್ಟ ಸೈಂಧವಮಾನಯ ಇತ್ಯುಕ್ತೆ ಇದು ಅಶ್ವ ಆನಯತಿ ವಿರೋಧ ವಿರೋಧಾಭಾಸ ಭವತಿ ಸೈಂಧವಮಾನಯ ಇತಿ ಅಶ್ವ ಸೈಂಧವ ಶಬ್ದಸ್ಯ ಲವಣಂ ಇತ್ಯಪಿ ಅರ್ಥ ವರ್ತತೆ ಅಶ್ವ ಇತ್ಯಪಿ ಅರ್ಥ ವರ್ತತೆ ಏವಂ ಸಂಹಾರ ಶಬ್ದಸ್ಯಾಪಿ ವೇಣೀ ಸಂಹಾರೇ ತಸ್ಯ ಸಂವರಣಂ ಯಥಾ ಸುಂದರಂ ಭವೇ ತಥಾ ಸಂಗ್ರಹಣಂ ವೇಣಿ ಭೀಮಸೇನೇನ ದ್ರೌಪದ್ಯಾಃ ವೇಣೀ ಸಂಹಾರಃ ಕೃತಃ
ಜಯೇಂದ್ರತೋಪಿ
ಸೈಂಧವ ವರ್ತ ಅವ ಸಿಂಧು ದೇಶ ಸಮುದ್ಭವ तत्र सैन्धवं लवणं सिन्धु समुत्पन्नं सैन्धवं समुद्रात् सिन्धु देशः वर्तते तथा तत्र समुद्रस्यापि नामान्तरं सिन्धुः इति समुद्रस्य नामान्तरं सैन्धवम् अश्वः अपि बहुशः अहं तथा न सैन्धव इत्यस्यापि सिन्धुदेशे समुद्भवः अश्वः इति प्रारम्भे विशेषा अस्ति जाति विशेषः जात्या अनुस्मरणं तदनन्तरं स्वजातिसमताङ्गतः विशिष्टः अश्वः आसीत् सैन्धवः सिन्धुदेशसमुत्पन्नः तदनन्तरम् अन्यान्यदेशे गत्वा सः अश्वोऽपि अन्य अश्वसदृशः एव जातः अतः अश्वशब्दस्य सैन्धवः पर्यायपदम् अभवत् सिन्धुदेशसमुत्पन्नः अश्वः स्वजातिसमतां गतः एवम् अश्व सैन्धवः इति अश्वस्यापि सिन्धुदेशसमुत्पन्नत्वेन प्रथमं कृतनामदे रूढः योगरूढः इति पदानां तत्र वर्तते पङ्कजम् इति उच्यते पङ्के जायते इति पङ्कजं तत्र पङ्कजं पङ्कजशब्दस्य तत्र मीनाः अपि भवितुं शक्यन्ते कर्कटकाः अपि भवितुं शक्यन्ते मकरः अपि किन्तु योगार्थः मीनः मकरः कर्कटकः इत्यादयः योगनामानि तदनन्तरं रूढः कमले एव रूढः पङ्कजम् इत्युक्ते कमलम् इति एवमेव सैन्धवम् इत्युक्ते तदनन्तरं सैन्धवदेशसमुत्पन्नः इति योगः तदनन्तरम् अश्वे सैन्धवम् इति योगरूढः योगात् रूढिः बलीयसि अतः एव उच्यते योगात् रूढिः बलीयसि योगिकार्थम् उपसर्जनं भवति परित्यक्तं तिरस्कृतं भवति योगरूढ्यर्थ एव स्थापितं भवति सर्वत्र एवमेव वर्तते अभ्युपगच्छति पर्यन्तं एवं प्रहार आहार संहार विहार तस्य हरति इत्यस्यैव विहरति आनन्देन सः प्रवासं करोति वा आनन्दम् अनुभवति इति वा विहरणं करोति आनन्दम् अनुभवन् सञ्चरणं यः करोति सः विहरति विहरति हरिरिह सरसवसन्ते इति गीतगोविन्दे वर्तते खलु विहरति हरिरिह सरसवसन्ते वसन्ते अत्र हरिः कृष्णः विहरति विहारं करोति विहरति वि उपसर्गेण हरति अस्य धातोः क्रियापदस्य विहरति अर्थः प्रहाराहारसंहार विहारपरिहारः हर परिहार कस्यापि परिहारः कर्तव्यः तस्य रोगादिसन्दर्भे विरोपणं कर्तव्यं विरोपितः भवति इत्यादिसन्दर्भे विरोपणं रोगविरोपणं भवति वैद्यः वदति अनेन औषधेन परिहारो भवति तव ज्वरः परिहृतः भवति परिहारः वासि आगुवदु परिहार वदामः समस्या परिहारः निराकरणमपि भवति तस्य सल्यूशन् क्यूर् 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 औषधेन क्यूर् क्यूर् परिहारः इत्युक्ते क्यूर् क्यूर् विहारपरिहारवत् केव हरति हर् इति धातुः हर् तस्य प्रसिद्धः अर्थः स्वयं स्थितः अर्थः हरति अपहरणं करोति इति हरति नयति आने नयति इत्यपि भवति तथा चौर्यादिसन्दर्भे हरति इत्युक्ते अपहरणं करोति तदनन्तरं प्रादि उपसर्गसम्बन्धेन तस्य अर्थे एव कुत्रापि गच्छति न एव वर्तते अतः उपसर्गाणां महाप्रभुत्वं संस्कृतभाषायाम् उपसर्गाणां प्रमुखक्रियापदानाम् उपरि उपसर्गाणां प्रभुत्वम् अधिकाधिकं वर्तते. तथा भाषायाः वृद्धौ उपसर्गाणां उपयोगः अधिकतमः वर्तते. भाषावृद्धिः उपसर्गैः अधुना आधुनिकवस्तुसमागमेपि तत्र उपसर्गसहितानामेव नाम नाम्नां क्रियापदानादि उपयोगः भवति. परिरक्षकः आरक्षकः आरक्षकः इति वदन्ति. उपसर्गसहितानामेव उपयोगः भवति.
आरक्षकः इति शब्दः अस्ति चेत् उपसर्गः वा तस्य न किमपि नामधेयम् अस्ति वा आ अक्षरस्य?
उपसर्गे
परन्तु तत्र धातुः नास्ति.
रक्षति धातुसमुद्भूत एव. यथा नामधातवः भवन्ति तथा धातवः अपि नाम भवन्ति.
तत्र
न संस्कृतप्राचीनकाले सर्वे शब्दाः व्युत्पन्नाः शब्दाः धातुमूलादेव समागताः इत्येव आसीत्. तरुर् वा भवतु गृहं वा भवतु मनुष्यो वा भवतु किमपि
परन्तु आरक्ष
सर्वे शब्दात्मना रक्षति
अस्ति चेत् आरक्षति
इत्यपि
परन्तु आरक्षकः अस्ति
तत्सन्दर्भे उपसर्ग एव
उपसर्गः
यथा सा रक्षति इत्युक्ते तस्य मूलरूपम् आ समन्तात् रक्षति इति आरक्षकः आ समन्तात् रक्षति इति आरक्षकः तस्य निर्वचनं तस्य अर्थविस्तारः आरक्षकः शब्दस्य अर्थविस्तारः किं कः इत्युक्ते आ इत्युपसर्गस्य समन्तात् इति अर्थः समन्तात् सर्वत्र क्रियायोगे मात्र क्रियायोगे एव उपसर्गः प्रादीनां नामधेयम् उपसर्गः इति नामधेयं क्रियायोगे एव भवति. यदा क्रिया अथवा क्रियारूपं परित्यज्य अन्यत् नामरूपं धारणेपि तस्य मूलक्रियात्वम् अनुसृत्य एव सा नामरूपं धारयति. हरति हरः हरिः हरः हरिः हरति इति हरः हरति इति हरिः
इत्युक्ते जी लेवल् सेक्युरिटि
सर्वाणि पदानि अपि रक्ष शब्दादेव रक्षः अपि तदनन्तरं रक्षः राक्षसः इति अर्थे रक्षः वर्तते खलु सोऽपि
तत्र उपसर्गः कुत्र
किन्तु आबालवृद्धः
तत्रापि समन्तादर्थः आदितः इत्यर्थः
तत्र उपसर्गः नास्ति
तदपि आ उपसर्ग एव तत्र उपसर्गाणामपि बह्वर्थं वर्तते.
क्रिया कुत्र अस्ति? आबालवृद्ध इति वदामः चेत् क्रिया कुत्र अस्ति?
बालशब्दः अपि दातु मूलादेव
यत्र कुत्रापि वयम् आ अपसर अव पश्यामः तत्र उपसर्गः इति वक्तुं
न शक्यते. यथा तथा वृद्धिः भवति वृद्धिसन्दर्भे न तथा वक्तुं
शक्यते.
अकारः आकारः भूत्वा वृद्धिस्वरूपं लभते तदा उपसर्गत्वं
नास्ति.
अधिगमेन इत्यादि उच्यते. अधिगमनम् अधिगमनम् अधिगमन एव अधिगमनम् तत्र अकारस्य एव वृद्धिः स्वरूपः तत्र उपसर्गत्वं नास्ति अधिगच्छति अलियमनं तत्र उपसर्गः वर्तते क्षमम्
आधिपत्येन
आधिपत्यं तत्रापि उपसर्ग एव अधिपतिः 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 अधि तत्रापि अत एव उक्तं संस्कृतभाषायाम् उपसर्गाणां प्रभुत्वम् अन्यादृशं वर्तते सर्वत्र उपसर्गाणाम् अधिपत्यं वर्तते किन्तु वृद्धिस्थले न तत्र उपसर्ग एव आविष्करणे उपसर्ग एव स्मरामि
वृद्धौ
वृद्धि सन्दर्भे अकारः वृद्धे यदा प्रज्ञा तत्रापि प्र उपसर्ग एव यदा स्मरणे आगच्छति आ इति कुत्र न उपसर्ग इति
आर्यपुत्रः भवति
आर्यपुत्रः तत्र आ इति उपसर्गः न सुष्ठु सुष्ठु उक्तम् आर्यपुत्रः इत्यत्र आ उपसर्गः न आरम्भ आ उपसर्गे लभदात् तत्र उपसर्ग उपसर्ग एव तत्र काशदीप्तौ आ हिमन्तात् प्रकाशते पश्यामः इत्यर्थे तत्र
आरोपणं
तत्र
आरोपयति
आरोपयति आरोहणम् अवरोहणम् इत्यत्र सर्वत्रापि उपसर्ग आलङ्कारिकाः आलङ्कारिकाः अत्र न उपसर्गः अलङ्कारस्य एव वृद्धिः अलङ्कारः अलम् इति उपसर्गः न इति तत्र मया दृष्टं तत्र सज्जी भवति इत्यत्र सज्जी इत्यादयः उपसर्ग सदृशा इति वक्तुं न शक्यते तस्य समासान्तरस्थितिः अन्याः एव वर्तते सज्जं सज्जीभवति इत्यादयः उपसर्ग ओटो अथवा उपसर्ग सदृशम् इत्यपि वक्तुं न शक्यते किन्तु अन्तः बहिः एतादृशानि तेन उपपदानि इति उच्यन्ते उपपदानि पदत्वं येषां नास्ति उपसर्गाणां पदत्वं यदि परोपजीविनः एते उपसर्गाः यदि धातुं परित्यज्य बहिरागच्छन्ति तेषां किमपि सत्त्वं न वर्तते प्रा किमपि कर्तुं न शक्यते किन्तु अन्तः बहिः तथा न अन्तः तस्य विशिष्टः अन्यः अर्थः वर्तते वर्तते अतः सज्जीभवति इत्यादौ उपसर्गसादृश्यं यद् किमपि दर्शितं तत् न समीचीनं अन्तर्बहिरपि केवलं ज्ञापनार्थं वदामः उपपदमिति उच्यताम् उपसर्ग ते अधुना उपसर्ग द्वाविंशति उपसर्गा एव साम्राज्यं कुर्वन्ति अत्र अन्तः बहिः सज्जी भवति इत्यादिकमपि तेषां सैन्ये यदि निवेशामः पराधिक्यं उपसर्ग इति नामधेयं निपातेषु गण्यन्ते चादयः इति वदन्ति माता इन्ये बहिः अन्तः एते सर्वे अनेके वर्तन्ते निपाताः इति स्थूलः वर्तते तस्य व्याप्तिः स्थूला व्याप्तिः निपातः
भाषायां
निपातानां संख्या निर्दिष्टा न वर्तते एके वर्तन्ते निपात एकाचनाम् इत्यादि वर्तते अव्ययपदं निपातम् अव्ययम्
अव्ययम् अव्ययम्
तस्य विभक्ति तिङ् सुप् प्रत्यय अधिकं न योगे भवति युक्ताः भवन्ति నిపాతేషు గణ్యంతే ఉపసర్గా, కేవలం ఉపసర్గా ఏ నిపాత అయితే చాదయో సత్వ ఇత్యుక్తం ఖలు. చాది అపి ఇత్యాది ఏ వర్తంతే బై అంతరే సర్వే నిపాత అంతత ఏషాం విభక్త్యంతరస్య సు ఔజస్ ఇత్యాది విభక్త్యాం అథవా తీతి ఇత్యాది ధాతు ప్రత్యయాం సంబంధ కర్తుం న శక్యతే న వర్తతే తే తాని సర్వాణి అపి నిపాత నిపాత అవ్యయం యథా యథా అవ్యయాని భవంతి తద్వదేవ నిపాతాని తు చవై తుహి వర్తతే నిపాతాని
తత్ కావ్యం వదతు కృపయా. ఏక కవి కావ్యం కృతవాన్ ఇతి తదా ఉక్తవాన్.
చవై తుహి చవై తుహి
కృపయా వదతు.
నిపాత చ వై తుహి చ వై తుహి ఇతి అక్షర చతుష్టయం పాదపూర్ణే చవై తుహి పాదపూర్ణే ఇతి అమరకోశకారేణ లిఖితం వర్తతే. కుత్రాపి శ్లోకరచనావసరే యది ఏకస్య అక్షరస్య న్యూనత భవే తర్హి చకారేణ తస్య పూర్ణం భవేత్. ఏకః కవి భవితుం ఇచ్చన్ కోపి ఉపవిష్టః సుప్రభాత వర్ణనం కర్తవ్యం ఆసీత్ తస్య రాజానం ప్రతి. రాజన్ కూజయతే కుక్కుః ముఖం ప్రక్షాళయ స్వటః కుక్కుటః టా ఇతి కుక్కు కుక్కుటః ఇతి శబ్దః కుక్కుట ఇతి పదం. తత్ర కుక్కుటా ఇత్యుక్తే టహ ఇతి మహాప్రాణస్య స్థితి తత్ర న అపేక్షతే అనుష్టుప్ ఛందస్. రాజన్ కూజయతే కుక్కుః అత కుక్కుటః ఇత్యత్ర యా టహ వర్తతే తత్ తత్ర నివేశితం అంతే స్వటః ఇది. స్వముఖం ప్రక్షాళయ రాజన్ కుక్కుటః కూజతి ముఖం ప్రక్షాళయ ఇది తేన వక్తవ్యం ఆసీత్. స్వముఖం ఇది ప్రయోగం న కృత్వా ముఖం ప్రక్షాళయ స్వటః స్వటః తస్య కవితాశక్తి తత్రైవ సమాధి గతా సమాధి. తదనంతరం స్వటః ఇతి శబ్ద నాస్తి స్వ ఇతి ముఖశబ్దస్య పూర్వే భవితవ్యమాసి. తథా టహ ఇతి కుక్కు శబ్దస్య అంతే టహ ఇతి భవితవ్యమాసి కుక్కుటః స్వముఖం ఇతి. కింతు తత్ర శ్లోక రచనావసరే తత్ అక్షరం యది తత్ర నివేశయతి తస్య ఛందోభంగా భవతి ఇతి మత్వా సః రాజన్ పూజయతి పూజయతే ఇతి అపి అబద్ధ ప్రయోగ ఏవ పూజతి పూజతి పూజంతం రామరామేతి పూజతి పిక పూజతి పంచమం పూజయతే ఇతి న ఇంతు తస్య పూజతి ఇత్యుక్తే ఏక అక్షర న్యూన భవతి అక్షరం న్యూనం భవతి అతః తేన పూజయతే ఇతి బహుశా శ్రుతం చురాదీనాం సర్వత్ర ఆత్మనే పరస్మైపది ప్రయోగా వర్తతే. చోరయతి ఇత్యపి వక్తుం శక్యతే చోరయతే ఇత్యపి చురాది ధాతున ఉభయపది ఉభయపదిత్వం వర్తతే అతః స పూజయతే ఇతి. భాది దాతుం తత్ర చురాదిషు నివేశితం. తదనంతరం పాదద్వయం సంజాతం రాజన్ పూజయతే కుక్కుః ముఖం ప్రక్షాళయ స్వటః. తదనంతరం తృతీయ చతుర్థ చరణం చవైతుహి చవైతుహి అమరకోశకారేణ ఉక్తం పాదపూర్ణే చవైతుహి చవైతుహి ఇది పాదపూర్ణం
త్రిపదాత్మకం. अनुष्ठं सम्पूर्णं
चवैतु द्विवारं द्विवारं चवैतु हि चवैतु हि चतुर्वारं चतुर्वारं तत्र तत्र पाद समस्यापूर्णार्थं दत्तं काचित् युवती हेमघटो युवत्याः सोपानमार्गे प्रकरोति शब्दं ठठं ठठं ठं ठठं ठठं समस्यापूर्णार्थं दत्तं ठठं ठठं ठठम् इति तस्य समस्यापूर्तिः कथं
भवेत्
तेन आलोचितं कस्यापि युवत्याः हस्तात् हेमघटः यदि मृद्घटः भवेत् घटं तत्रैव ध्वस्तः भवति ध्वस्तः भवति अतः हेमघटः तदा सोपानमार्गे यदा घटः पतितः तदा अधः सोपानमार्गे पतन् ठं 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 ठम् इति शब्दम् अकरोत् इति समस्या पूर्णं
रामायणं
न केनापि कविना अत्र तत्र सुभाषितादिसङ्ग्रहे वर्तते सङ्ग्रहे वर्तते केन रचितमिति तत्र उल्लिखितमपि नास्ति एवमेव बहुशः वर्तन्ते एवमेव का खा गा घा समस्या का खा गा घा समस्यापूर्णं कर्तव्यं कालिदासमिति कृत्य वर्तते इति हत्तुम्बाले काञ्चनमाला कस्याः पुत्री कनकलताया हस्ते किन्ते पुस्तकफले अधुना मया तालीपत्रम् इत्युक्ते अधुना तालीपिट्टुं भावयन्ति अतः तालीपत्रस्थाने पुस्तकफलके इति मया तत्र किञ्चित् परिवर्तनं कृतं पुस्तकफलके का वा रेखा का 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 तत्र विक्रमादित्यः नव मणयः आसन् किल तत्र विक्रमादित्यस्य आस्थाने ते कालिदासं प्रति मत्सरिताः आसन् तदा एकस्मिन् दिने विक्रमादित्यः येषां पाठः प्रदातव्यः इति निश्चित्य तत्र संसदि उक्तवान् का खा गा घा समस्यापूर्तिं कृत्वा आगच्छन्तु ते सर्वे गृहं गत्वा उपविश्य का खा खा कथं वा समस्यापूर्तेः कर्तव्या सर्वे न शक्ताः अभवन् अशक्ताः ते परदिने परेद्युः तत्र राज्यसभाम् आगत्य उपविष्टाः कालिदासः तद्दिने नासीत् केनापि श्रुतमासीत् एवं समस्या दत्ता इति सा परेद्युः राज्यसभाम् आगच्छन् आसीत् सा मार्गे गच्छन्तीं कामपि कन्यां बालिकाम् अपश्यत् सः स्वाभाविकतया तया सह सम्भाषणं कृतवान् बालिके का त्वं बाले बालिके त्वं का इति अपृच्छत् काञ्चनमाला स स्वनामधेयम् उक्तवती काञ्चनमाला स्वनामधेयं मम नामधेयं काञ्चनमाला इति कस्याः पुत्री तव माता का कनकलतायाः कनकलतायाः पुत्री अहं कनकलतायाः पुत्री कनकलतायाः हस्ते किन्ते तव करे हस्ते किं वर्तते पुस्तकफलके पुस्तकं फलकं लेखनार्थं पाठयि इति पाठयि तमिळ् पाठिन कन्नडपाठि स्लेट् कन्नडभाषायां पाठयि इत्युक्ते स्लेट् तमिळ्भाषायां पाठि इत्युक्ते अज्जि पितामही मातामही वा तथा पुस्तकफलके का वा रेखा तत्र फलके किमपि लिखितं वर्तते रेखाङ्कितं वर्तते रेखा रेखा इति वर्तते का ख ग ख उपाध्यायिन्या तत्र गृहकार्यार्थं दत्तमासीत् श्वः लिखित्वा आगन्तव्यम् इति अधुना फलके लिखित्वा आगमिष्यामि इति तया उक्तवती तत्र राजस्थानं गच्छति कालिदासः. सर्वे पण्डिताः तत्र अधोमुखाः उपविष्टाः, समस्यापूर्णं न कृतं तैः. राजा विक्रमादित्यः पृच्छत्, कालिदासः, ह्यस्तनविषया त्वया ज्ञातः किं? किं समस्या दत्ता आसीत्? का खा गा इति समस्या पूर्णं कर्तव्यम् इति त्वया कृतम्? ओ, मया कृतं, मया इति बालिकया कृतं. न मया, बालिकया कृतं. बालिकया? हा, अधुना आगमनसमये तत्र मार्गे एका बालिका, तया एव समस्या पूर्तिः कृता. कथं? का त्वं बाला इति मया पृष्टं. तया उक्तं काञ्चनमाला इति. एवं श्लोकम् अपठत्. का त्वं बाले काञ्चनमाला, कस्या पुत्री कनकलताया, हस्ते किन्ते पुस्तकफलके, का वा रेखा का खा गा गा. इति कवीनां विदुषाम् आवश्यकता किं वर्तते? बालिकया क्रियते, तदा तु ते पण्डिताः. एवं संस्कृतभाषायाम् एवम् अपन्नुतयः, बिन्दुच्युतकम् इत्यादिकं प्रहेलिकाः बहुशः वर्तन्ते. तत्र सुभाषरत्नभण्डागारादिकं गृहीत्वा यदि अभ्यासः क्रियते तर्हि तत्र अन्यान्यभाषां कर्तुमपि शक्यते. तदा तत्र कर्णाटकविद्यार्थिनः यदि भवन्ति तर्हि तदा एवं
चन्द्रबिम्बसमाकारं ताम्रवर्णसमप्रभम् उकारादिळकारान्तं वस्तुनाम षडक्षरी
इति वर्तते. एकं चन्द्रबिम्बसमाकारं वर्तते, ताम्रवर्णसमप्रभं, तस्य कान्तिः प्रकाशः रूपं ताम्रवर्ण. उकार प्रथमाक्षरम् उकारः, अन्त्याक्षरं लकारः, षडक्षरी वस्तुनाम षडक्षरी, षड् अक्षराणि वर्तन्ते. उच्यताम् उत्तरं कर्णाटकभाषायाम् उत्तरं वर्तते. संस्कृतस्य कर्णाटकभाषायाम् उत्तरम् उद्दिन अप्पळा. उद्दिन अप्पळा, उडद् पापळ्. तदा मराठी हिन्दीभाषायामपि तदेव कर्तुं शक्यते. उडद् पापळ्, उकारादि डकारान्तं कये बस् हो गया. उकारादि डकारान्त कहने पर हिंदी में भी इसका उपयोग हो जाता है. उद्दिन अप्पळा, उड़द पापड, उड़ा उड़द पापड.
आंग्ल भाषा स्माइल इज है, स्माइल बिटवीन एस एंड ई.
स्माइल, करेक्ट.
स्माइल्स,
स्माइल्स, उपसर्गेण अन्यानि अपि कोणि सः पदि परस्मैपतितः आत्मनेपदि, आत्मनेपतितः परस्मैपदि अपि भवन्ति उपसर्गेणैव. यथा विपराभ्यां जेहे सूत्रं, विपराभ्यां जेहे, जी जयति, जे इत्युक्ते जी धातु, जेहे इत्युक्ते जे धातोः विपरा उपसर्गाभ्यां योगे आत्मनेपदं भवति. जयति इति परस्मै पदः, परस्मैपदी धातुः. जयति इति परस्मैपदी धातुः. यदा तस्य पृष्ठभागे पूर्वे वि अथवा परा उपसर्गः युक्तः भवति तदा विजयते, पराजयते,
ವಿಜಯತೆ ಪರಾಜಯತೆ ಪರಾಜಯ 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 ವಿ ಪರಾ ಉಪಸರ್ಗ ಯೋಗೇನ ಜಯತಿ ಧಾತು ಪರಸ್ಮೈಪದಿ ಧಾತು ಆತ್ಮನೇಪತಿತ್ವ ಪ್ರಾಪ್ನೋತಿ ಸಮವ ಪ್ರ ಸ್ಥಾ ಇತ್ಯುಕ್ತೆ ಸ್ಥಾ ಧಾತು ಸ್ಥಾ ತಿಷ್ಠತಿ ತಿಷ್ಠತಿ ಇತಿ ಉಚ್ಯತೆ ಖಲು ತಿಷ್ಠತಿ ಸ್ಥಾ ಇತಿ ಧಾತುರೂಪಂ ಸ್ಥಾ ಶಬ್ದಸ್ಯ ತಿಷ್ಠಾದೇಶಾನಂತರಂ ತಿಷ್ಠತಿ ತಿಷ್ಠತಃ ತಿಷ್ಠಂತಿ ಇತ್ಯಾದಿ ಭವತಿ ತತ್ರ ಸಂ ಅವ ಪ್ರ ವಿ ಸಂ ಅವ ಪ್ರ ವಿ ಉಪಸರ್ಗೈ ಯೋಗೆ ತಿಷ್ಠತಿ ಇತಿ ಪರಸ್ಮೈಪದಿ ಧಾತು ಆತ್ಮನೇಪದಿ ಸಂತಿಷ್ಠತೆ ಅವತಿಷ್ಠತೆ ಪ್ರತಿಷ್ಠತೆ ವಿತಿಷ್ಠತೆ ಇತಿ ಆತ್ಮನೇಪದಿ ಭವತಿ ಆತ್ಮನೇಪದಿ ಭವತಿ ತಿಷ್ಠತಿ ಸಂತಿಷ್ಠತೆ ಅವತಿಷ್ಠತೆ ಪ್ರತಿಷ್ಠತೆ ವಿತಿಷ್ಠತೆ ಪರಾಭ್ಯಾಂ ದೇಹೇ ಅವತಿಷ್ಠತೆ ಇತ್ಯುಕ್ತೆ ಪೃಥ್ವೀಭಾವೇನ ತಿಷ್ಠತಿ ಪೃಥ್ವೀಭಾವೇನ ವಿನಯಾನ್ವಿತ
ಸಮಗ್ರಭ್ಯಾಂ
ಅತ್ರ ಸಿದ್ಧಾಂತಕೌಮುದಿಯವೇ ಅನ್ಯಾನಿ ದೃಷ್ಟಾಂತಾನಿ ಕ್ವಚಿತ್ ತತ್ರ ಕ್ವಚಿದಪಿ ಗ್ರಂಥೆ ಏಕಸ್ಮಿನ್ನೇವ ಭಾಗೆ ನ ಉಪಲಭ್ಯಂತೆ ನೇರ್ವಿಷಃ
ನೇರ್ವಿಷ
ವಿಶತಿ ಧಾತೋ ನೇಹ ನೇ ಇತ್ಯುಕ್ತೆ ನೀ ಉಪಸರ್ಗೇಣ
ನಿವಿಷತೆ ವಾಸಂ ಕರೋತಿ ನಿವಿಷತೆ
ವಿಶತಿ ಇತಿ
ಪರಸ್ಮೈ ಪದಿ ಉದಾಹರಣ ಅಧುನಾ ವ್ಯಾಂ ಪರಿಭ್ಯೋ ರಮಃ ರಮಃ
ರಮತೆ ಇತಿ ಆತ್ಮನೇಪದಿ ರಮತೆ ಇತಿ ಆತ್ಮನೇಪದಿ ವಿ ಆಂ ವ್ಯಾಂ ಇತ್ಯುಕ್ತೆ ವಿ ಆಂ ಪರಿ
ವಿ ಆಂ ಪರಿ
ವಿ ಆಂ ಪರಿ ಉಪಸರ್ಗ ಸಂಬಂಧೇನ ವಿರಮತಿ ವಿರಮತಿ ವಿರಾಮ ವಿರಾಮ ಉತ್ತರ ಉತ್ತರರಾಮಚರಿತ್ರೆ ಹಾಂ ಹಾಂ ಸಹಿತ ಕೋಪಿ ದೂತ ಆಗತ್ಯ ವನವಾಸ ಕಥಾಂ ಕಿಮಪಿ ವದತಿ ತತ್ಸಮೇ ರಾಮ ಆವತಿ ವಿರಾಮ ವಿರಾಮ ವಿರಮ ವಿರಮ ಇತಿ ಲೋಟ್ಲಕಾರಸ್ಯ ಮಧ್ಯಮ ಪುರುಷ ಪರಸ್ಮೈಪದಿ ರೂಪ ವಿರಮತಿ ವಿರಮ ಆತ್ಮನೇಪದಿ ಧಾತು ರಮತೆ
ವಿರಮತಿ
ಹಾ విరమతి విరమతి ఆరమతి ఆరమతి ఆనందం ఆప్నోతి ఆరమతి పరిరమతి పరితహారమతి పరిరమతి బాలికా ఉద్యానే పరిరమతి క్రీడతి ఆనందం ప్రాప్నోతి సంతోషేన వర్తతే ఇత్యాది
ఆరమతి తత ఆరామ శబ్ద
ఆరం ఆరం ప్రశాంత సుఖేన ఆస్తే సుఖకరం వక్తవ్యం ఖలు విసర్గేణ స్థాధాతో ఇది షష్ట్యర్థం దర్శయంతి సూత్రే సమప్రభావ స్థ ఇత్యుక్తే స్థాధాతో ధాతో సం అవ ప్ర వి ఉపసర్గేణ సంబంధే తత్ర ఆత్మనేపది భవతి
ఆరామే విశేషేణ రమతే వా విరామే విశేషేణ రమతే
తస్య
విశేషేణ
విరామ ఇతి విరామ ఇత్యుక్తే తత్ర విరామ ఇది అవసాన్ ఎండ్ విరామ శబ్దస్య విరమతి ఇది ఎండ్ అంతః ఇత్యర్థ విరమతి అంతం కరోతి విరమతి అధునా పాఠ విరమతి పాఠ విరమామహే విరతి ఇత్యాది విరామ ఇత్యుక్తే విరామోసానం అత్ర అగ్రే ఆగచ్చతి సూక్తి రామో అత్ర బహుశా అర్థవిశేష వర్తది శంకర భగవత్పాదై తత్ర భాష్యం లిఖితం వర్తది విష్ణుసహస్రనామం అధికృత్య రామ రామ విష్ణుసహస్రనామని అమాని మానదో మాన్య లోకస్వామి త్రిలోకధృక్ తావత్ పర్యాప్తం జీవనస్య శుభగత్వం కర్తం అమాని ప్రథమం మానవేన అమాని భవితవ్యం అహంకార పరిత్యాగ కర్తవ్య అమాని తథా అన్యేషాం మానదః గౌరవం యచ్చేత్ మానదః తదా అయం మాన్యః భవతి మాన్యతయా సా లోకస్వామి అపి భవితుం శక్యతే అంతతః త్రిలోకధృక్ అపి భవితుం శక్యతే అమాని మానదో మాన్యః లోకస్వామి త్రిలోకధృక్ అమాని మానదో మాన్యః అహంకార ప్రత్యాగ ప్రథమం నాను హోదరే హోదేను ఇది కనకదాసేన ఉక్తమితి తత్ర వర్తతే తత్ర అహంకార ఏవ ఇతి అన్యైః భావితం ఆసీత్ కింటు తేన ఉక్తం నాను నాను ఇతి అహంభావః వర్తతే తస్య గమనేన సా మోక్షం అధిగంతుం సమర్థా భవేత్ ఇతి తస్య అర్థః నాను హోదరే హోదేను
అహం గచ్చేది చేత్ గచ్చాను
నాను హోదరే హోదేను అహం గచ్చేత్ చేత్ గచ్చేయం అహం గచ్చేత్ చేత్ గచ్చేయం గచ్చేయం అమిత్యధ్యాహార యదా అస్మాకం మనసి యదా అహం వర్తతే తస్య గమనే తత్ర ఏమేవ అత్ర లభ్యతే పశ్యామి పరాభ్యాం దేహే
ಯಾಂಗ್ ಪರಿಪ್ಯೋರಮ ವಿರಮತಿ ಆರಮತಿ ಹಾಕಿದಮತಿ ಬಾ ಆತ್ಮನೇ ಪದೇನು ತತ್ರ ತತ್ರೇವ ಸಂಧಿ ಪ್ರಕರಣೆ ವರ್ತತೆ ವ್ಯತ್ಯಾಸ ತತ್ರ ಪೂರ್ವಪಸಂದ ಉಪಸರ್ಗಾದೃತಿ ಧಾತೌ ಉಪಸರ್ಗಾದೃತಿ ಧಾತೌ ಅನ್ಯದ ಉಪಸರ್ಗ ಧಾತೌ ಉಪಸರ್ಗ ಸಂಬಂಧಿತ ಏವ ವಿಷಯ ಉಪಸರ್ಗಾತ್ ಋತಿ ಋತ್ ಋ ಧಾತೌ ಪರೆ ವೃದ್ಧಿ ಭವತಿ ಧಾತೌ ಪರೆ ವಿಸರ್ಗ ನ ತತ್ರ ನ ವಿಸರ್ಗ ಉಪಸರ್ಗಾತ್ ಋ ಧಾತೌ ಪರೆ ಅತ್ರಾಪಿ ತಿ ಇತಿ ಧಾತುತ್ವ ಸೂಚನಾರ್ಥಂ ಋತಿ ಇತಿ ಋತೌ ಪರೆ ಋತೌ ಇತ್ಯುಕ್ತೆ ಋ ಧಾತುವ ಪರೆ ರುಚ್ಛತಿ ಇತಿ ಪ್ರ ರುಚ್ಛತಿ ಪ್ರ ರುಚ್ಛತಿ ಪ್ರಾರ್ಚತಿ ಪ್ರಾ ಇತಿ ವೃತ್ತಿ ಪ್ರಾರ್ಚತಿ ಪ್ರಚ್ಛತಿ ಪ್ರಾರ್ಚತಿ
ಋ ಸ್ವರಸ್ಯ ಆರ್ ರೀತಿ
ವೃದ್ಧಿ ಆರ್ ಇತಿ ವೃದ್ಧಿ ಅರ್ ರೀತಿ ಗುಣ ಗುರಾಂಡ್ರ ಪರ ಅರ್ ರೀತಿ ಗುಣ ಕೃಷ್ಣರ್ಧಿ ಇತ್ಯಾದಿ ಬ್ರಹ್ಮರ್ಷಿ ಮಹರ್ಷಿ ದೇವರ್ಷಿ ದೇವರ್ಷಿ ಇತಿ ಉಕ್ತ ಮಯ ದೇವರ್ಷಿ ಇತಿ ನ ದೇವರ್ಷಿ ಗಚ್ಚತಿ ಪ್ರಗಷ್ಟೇನ ಗಚ್ಚತಿ ಪ್ರಗಚ್ಚತಿ ವತ್ ಪ್ರಗತಿ ವೆಲ್ ಗೋಯಿ ಪ್ರಗತಿ ಪ್ರಗತಿಯಲ್ಲಿ ಇದೆ ಇತ್ಯಾದಿ ಉಚ್ಯತೆ ಪ್ರಗತೋ ವರ್ತತೆ ಇತ್ಯಾದಿ ಪ್ರಗತಿ ಪ್ರಾರ್ಥ್ಯತಿ ರುಚ್ಯತಿ ಇತ್ಯುಕ್ತೆ ಗಚ್ಚತಿ ರುಚ್ಯ ಸ ಧಾತೋ ಗಚ್ಚತಿ ಅರ್ಥ ಅತ್ರ ಉಪಸರ್ಗಾದೃತಿ ಧಾತು ಇತಿ ಸೂತ್ರ ಯದಿ ನ ಭವತಿ ತತ ಪ್ರಾರುಚ್ಯತಿ ಪ್ರಾರ್ಚ್ಯತಿ ಇತಿ ಭವಿತವ್ಯಂ ಆಸೀತ್ ಉರಂಡ್ರಪಣ ಇತಿ ಸೂತ್ರೇ ಹಾ ಪ್ರಾರ್ಚ್ಯತಿ ನ ಪ್ರಾರ್ಚ್ಯತಿ ಇತ್ಯರ್ಥ ಇತ್ಯರ್ಥಂ ಉಪಸರ್ಗಾದೃತಿ ಧಾತು ಇತಿ ಸೂತ್ರ ಪ್ರವೇಶ ಗುಣಾದೇಶ ಏವ ಭವೇತ್ ಅತ್ರ ನ ಗುಣಾದೇಶ ಕರ್ತವ್ಯ ಕಿಂತು ವೃದ್ಧ್ಯಾದೇಶ ಇತಿ ಸಮಯ ಕಥಂ
ಏಕಃ ಪ್ರಶ್ನಃ
ಸಮಯಃ
ಏಕಃ ಇದೆ ಪ್ರಶ್ನಃ ತರ್ಹಿ ಕಸ್ಯ ಉಪಸರ್ಗಸ್ಯ ಕಃ ಅರ್ಥಃ ಇತಿ ಅಪಿ ಸೂತ್ರೆ ಅಸ್ತಿ ವಾ ಕುತ್ರಾಪಿ
ಸೂತ್ರೇ ನ ವರ್ತತೆ ಕೇವಲ ಪ್ರಯೋಗಾಧೀನ
ಕಷ್ಟಂ
ಕಿ ಕೇವಲಂ ಅಭ್ಯಾಸೇನೈವ ಅಥವಾ ಕುತ್ರಚೇತ್ ಉಪವಿಶ್ಯ ಕಾರ್ಯಂ ಕರ್ತವ್ಯಂ ಉಪಸರ್ಗ ವಿಚಾರೇ ತತ್ರ ಪ್ರಕರಣ ನಿರಂಥಾದಿಷು ವಾ ದಿತ್ವೇಪಿ ಕೃತಂ ಮಯ ಪ್ರಾರಬ್ಧಮಾಸೀತ್ ಪ್ರಾರಬ್ಧತಯ ಅವಸಿತ
ಸ್ವಯಮೇವ ರಚನಾಮಪಿ ಕರ್ತುಂ ಶಕ್ನುಮಃ ವಾ
तथा प्रयोगं कर्तुं शक्यते
वाङ्मये
स्वयं प्रयोगे अनेके एवं क्रियते खलु एवं कृत्वा एव उपसर्गाणां बहु प्रयोगः
शीघ्रकवि भवति
सादृश अन्यत्क्रियार्थं गत्वा कर्तुं
शुभवति इति वक्तुं शक्यते तत्र न प्रयोगः कर्तव्यः इति निषेद्धुं तत्र कोऽपि नियमः न वर्तते शुभवति इति न वक्तव्यम् इति केवलं प्रयोगः नास्ति इति अधुना वर्तते खलु प्रयोगे नास्ति इत्येव वक्तुं भवति न तु दोषः नास्ति दोषः नास्ति तादृश अर्थं सादृश्येन अर्थं गृहीत्वा कुत्रापि प्रयोगं कर्तुं शक्यते
परन्तु
एवमेव सुकरम् इत्यादि प्रयोगः वक्तुं सुकरं दुष्करम् अध्यवसितुं
परन्तु एकः एव उपसर्गः एकस्य धातोः अन्यत् अर्थम्
अर्थान्तरमपि खलु तत्र आ इति उपसर्गः पर्यन्तान्त इति वर्तते आदि इत्यर्थे अपि भवति तत्सन्दर्भादेव तस्य अर्थः आ हिमालयात् इत्युक्ते आ समन्तात् हिमालयति आ हिमालयात् कन्याकुमारीपर्यन्तम् इत्युक्ते हिमालयात् आरभ्य तस्य आशब्दस्य आरम्भार्थः एवं उपसर्गाणाम् अर्थवैद्यमपि अङ्कितुं शक्यते किन्तु कुत्रापि एवं कृतं न वर्तते उपसर्गविवृत्तिः इति अल्पं पुस्तकं वर्तते निष्प्रयोजकम् यद् अस्माभिः अधुना यत् या पाठः कृतः तावदेव तस्मिन् वर्तते कर्तुं बहुशः अवकाशः वर्तते केवलम् उदाहरणमेव तत्र शरणम् उपसर्गविषये के उदाहरणानि एव गृहीत्वा तस्य आ इत्यस्य एते अर्थाः भवन्ति इत्यादि प्र इत्यस्य एते अर्थाः भवन्ति इत्यादि कृत्वा कर्तुं शक्यते अन्येषां कृते कृता भवति सूत्रं न न न न वर्तते न वर्तते न वर्तते यदि कतिचन सूत्राणि अधुना दर्शितानि एवमेव अन्यदृक्पूरद्धूपथामानक्ष इत्यादि तत्र उपपदसमासविषये क्रियासंवारे तत्र नियमार्थं सूत्राणि वर्तन्ते केवल उपसर्गार्थम् अधिकृत्य न कोऽपि न किमपि सूत्रं वर्तते ताकि सूत्रसमूहः विरामः
श्लोकं वदामि.